हरि ओम् सर्वेभ्यः नमस्कारः. कौमुद्याः स्वादिसन्धिप्रकरणस्य द्वितीयो भागः पठामः, द्वितीयं भागं पठामः. एनाक्षरसमां नायमधिगम्य महेश्वर कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. स्वादिसन्धिप्रकरणम् आरब्धं कक्ष्यायां यथा मया उक्तं, स्वादयः प्रत्ययाः सु औजस् इत्यादिना, एकविंशतिः प्रत्ययाः सुप् प्रत्ययाः, तथैव अन्येपि प्रत्ययाः सन्ति. स्वादिप्रत्ययेषु परेषु ये वर्णविकाराः सम्भवन्ति ते स्वादिसन्धिप्रकरणे अधीयन्ते. तत्रादौ विशिष्य सकारे परे अथवा सकारः अन्ते अस्ति चेत् किं भवति इत्यत्रैव बहूनि सूत्राणि सन्ति. ससजुषोरुः इति प्रथमं सूत्रं. पदान्ते सकारः वर्तते चेत् पदान्तस्य सस्य सजुशब्दस्य च रुः स्यात् इत्यनेन रुत्वं विधीयते. पदान्ते सकारः विद्यते चेत् तस्य स्थाने रुः, रु इत्यस्य उकारस्य अनुनासिकत्वात् उपदेशयदनुनासिक इत्यनेन इत्संज्ञ ऋ रेफः शिष्यते, किन्तु ऋत्वम् इति सामान्यतया उच्यते. पदान्तस्य सस्य रुः स्यात्, तस्य रोः खरिपरे खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति. किन्तु अचिपरे अथवा मृदुव्यञ्जनेषु परेषु किं भवति इति चेत् ह्रस्वकारात् परस्य रोः ह्रस्वकारे परे, अतो रोः अप्लुतादप्लुते, अतः अति अति इति अनुवर्तते. अतः ह्रस्वकारात् परस्य रोः स्थाने अतिपरे ह्रस्वकारे परे उत्त्वं विधीयते. ऋत उत् इत्यतः उत् इति अनुवर्तते. उकारः आदेशः स्यात् रोः स्थाने. उकारे कृते पुनः अद्गुणः इत्यनेन गुणे पूर्वरूपे, यथा राम इति प्रातिपदिकात् सुप्रत्यये तस्य ससजुषोरुः इति ऋत्वे रामर् अपि इति स्थिते, अनेन अतोरोरप्लुतादप्लुते इत्यनेन उत्तमं. राम उ अपि अकार उकारयोः आद्गुणः इत्यनेन गुणे रामो अपि, ततः एङः पदान्तादति इत्यनेन पूर्वरूपे रामोऽपि इति रूपं सिद्ध्यति. ह्रस्वकारे परे उत्तमं भवति. न केवलं ह्रस्वकारे, हषि च. अतः ह्रस्ववर्णात् परस्य रोः हषि परे. हश् नाम मृदुव्यञ्जनानां प्रत्याहारः हश् इति. हयवरट् इत्यतः आरभ्य जगबगडदश् इत्यत्र शकारपर्यन्तं हशिपरे अपि रोहुस्थाने उत्तमं भवति. यदा हशिपरे उत्तमं भवति तदा तु आद्गुणः इत्यनेन गुणस्तु भवति, किन्तु एङः पदान्तादति इत्यस्य अवकाशः नास्ति. रामः गच्छति, राम सु गच्छति इत्युक्ते सकारस्य ऋत्वे, ततः रोः हशि च इति सूत्रेण उक्त्वे आद्गुणे रामो गच्छति इति रूपं सिद्ध्यति. तस्मात् मृदुव्यञ्जनेषु परेषु उत्त्वं हशि च इति उत्त्वं गुणः, अकारे ह्रस्वकारे परे अतोरोरप्लुतादप्लुते इत्यनेन उत्त्वं ततः गुणः आद्गुणः एङः पदान्तादति इति पूर्वरूपं च इति प्रक्रिया अधीता. अन्यत्र किं भवति, ह्रस्वकारः नास्ति, पूर्वं ह्रस्वकारः नास्ति अथवा अग्रे ह्रस्वकारः नास्ति इत्यादिषु किं भवति इति प्रश्नः. तदा भो भगो अघो अपूर्वस्य योषि. भो भगो अघो इत्यस्तु अपूर्वस्य अकारपूर्वस्य रोः अशिपरे, स्वरे परे पुनः मृदुव्यञ्जने परे, अकारं ह्रस्वकारं विहाय अन्येषु स्वरेषु परेषु, अथवा अकारे परेपि पूर्वं ह्रस्वकारः नास्ति चेत् किं भवति, अपूर्वस्य अवर्णपूर्वस्य रोः अशिपरे यकारः आदेशः भवति. यथा देवा देवार् अत्र इत्यस्ति चेत् रकारस्य स्थाने रेफस्य स्थाने यकारे देवाय् अत्र अथवा देवाय् इह इति भवति. तत्र लोपशाकल्यस्य इत्यनेन लोपे देवा इह अथवा तदभावे देवा इह इति रूपम्. अत्रैव भो भगो अघो इत्यस्ति. भोस् भगोस् अघोस् इति सकारान्ताः निपाताः प्राग्रीश्वरान् निपाताः इति निपातसंज्ञायां प्रादयोसत्वे चादयः चादिगणे पठिताः एते निपाताः भोस् भगोस् अघोस् इति सर्वे सकारान्ताः निपाताः निपातत्वात् अव्ययसंज्ञा अपि अस्ति किं भवति एतेषां भोस् अच्युत इत्यस्ति ससजुषोरुः इत्यनेन ऋत्वे भोर् अच्युत तस्य भो भगो अघो अपूर्वस्य योषि इत्यनेन रेफस्य स्थाने यकारः रोहस्थाने यकारः भोय् अच्युत इदानीं किं भवति इति प्रश्नः लोपशाकल्यस्य इत्यस्य अवकाशस्तु नास्ति लोपशाकल्यस्य इत्यस्य प्रवृत्तिः कदा केन् वि डू लोपशाकल्यस्य हियर् ऐ टोल्ड् नो वै नाट् लैक् वि हेड् से देवा इह ऑन लोपा वी कुड डू देवा इह अदरवाइज देवाय इह सो वाई नॉट अप्लाई लोपशाकल्यस्य हियर व्हाट आर द कंडीशंस फॉर एप्लीकेशन ऑफ लोपशाकल्यस्य एक्जैक्टली प्रिया सेज द सूत्रार्थ फॉर लोपशाकल्यस्य सेज अवर्णपूर्वयोः पदान्तयोः यवयोः वा लोपः अशिपरे अशिपरे यवयोः यकारवकारयोः पदान्तयोः तत्सर्वम् अस्ति अत्र पदान्तत्वमस्ति अशि अश्परकत्वमस्ति यकारः अस्ति किन्तु अवर्णपूर्वयोः इति नास्ति अवर्णः यकाराद् वकाराद् वा प्राक् अकारः स्यात् तदैव लोपशाकल्यस्य इत्यस्य प्रवृत्तिः तस्मादत्र लोपशाकल्यस्य इति न प्रवर्तते तर्हि किं स्यात् इति प्रश्नः लोपशाकल्यस्य विल् नाट् अप्लै हियर् बिकास् देर् इस् नो अकार इट् लोपशाकल्यस्य अप्लैस् ओन्ली वेन् देर् इस् अन् अकार विच् प्रिसीड्स् द यकार आर् वकार सो तदानीं सूत्रं तेषां रोहु यत्वे कृते अर्थात् भोस् भगोस् अघोस् सर्वत्र ऋत्वं भवति तस्य यत्वं भवति ततः व्योर्लघुप्रयत्नतरः शाकटायनस्य इति अग्रिमं सूत्रं व्योः लघुप्रयत्नतरः शाकटायनस्य There is a question. When we say apurvasya yoshi, should not ator or aplata or aplate override this sutra? It does override. That is why when there is rasvakara both preceding and following the root, we do not use bhobhago or bhobhurvasya yoshi. We do utva. Like say, ramaha api. Tatra api bhobhago or apurvasya tisya vakashaha asti. Ito hi apurvasya. Purvam avarnaha asti, agrepi ashvarnaha asti. किन्तु विशिष्य ह्रस्वकारात् अस्वकारे परे उत्वस्य विधानात् तदपि सपादसप्ताध्यायां विधानात् एतदपवादत्वेन तदेव भवति अत एव तस्मिन् सूत्रे इफ् यु रिमेम्बर् असुन् एस् हि सेड् अतोरोरप्लुतारप्लुते एण्ड् मीनिङ्ग् हि सेड् भो भगो अभो अपूर्वस्य योषि इति वक्ष्यमाणस्य यत्वस्य अपवादः इट् इस् एन् एक्सेप्शन् टु द यत्व इवन् देर् द यकार भो भगो कुड् हेव् अप्लैड् बट् इट् डस् नाट् व्योः लघुप्रयत्नतरः शाकटायनस्य पदत्रयं वर्तते पदान्तयोः व्योः वकारयकारयोः पदस्य अत्यधिकारः विद्यते पदान्तयोः वकारयकारयोः लघूच्चारणौ वयौ वास्तः अशिपरे शाकटायनस्य आचार्यस्य मतेन इत्युक्तत्वात् विकल्पेन भवति अशि भोभगो अभोपूर्वस्य योषि इत्यतः अशि इति अनुवर्तते लघुप्रयत्नतरः अर्थात् लघूच्चारणः वकारः यकारश्च आदेशः स्यात् वकारः वकारस्य स्थाने वकार एव भवति यकारस्य स्थाने यकार एव आदेशः किन्तु उच्चारणे किञ्चित् वैशिष्ट्यं वर्तते लघूच्चारणः इत्युच्यते लघूच्चारणः नाम कः इति चेत् यस्य उच्चारणे यस्य वर्णस्य उच्चारणे जिह्वाग्र उपाग्रमध्यमूलानां शैथिल्यं जायते There is a type of here, Shaithilyam Jayate, Saha Laghuchcharana. Actually, I don't know how to demonstrate Laghuchcharana. Theoretically, he says when there is a sort of, I do not know how to pronounce it in English. In Kannada, they say Telsodu, where the Varna is not ट्रेस्ट और नॉट प्रोनाउंस्ड फुली, दट इज समथिंग लाइक दैट वेर यू हैव ए लघु उच्चारण वेर द यकार इट साउंड एज इफ इट्स देयर और नॉट देयर. इट्स नॉट प्रोनाउंस्ड फुल्ली एज यकार विद द स्ट्रेस ऑन इट, बट इट इज स्टिल देयर. दट इज कॉल्ड अ लघु उच्चारण वकार और अ लघु उच्चारण यकार. सो अकॉर्डिंग टू शांकटायन, वेन वकार और यकार एट द एंड ऑफ ए पद इज फॉलोड बाई अश, which means the case where you had bho yachyuta, then the yakara or vakara is replaced by a laghu uchcharana, vakara or yakara. Hindi, no, I mean, I do not know how to explain it in any language actually, especially my Hindi is not that good also, and maybe somebody could try. It's where the this is the only case where the laghucharana, this is the only sutra which mandates laghucharana, and it says in such cases the yakara is, there is a shaithilya in prayatna. Shaithilya means the prayatna is not full or that the varna is not stressed as it should be normally. I actually don't know how to explain this further. It's a very theoretical aspect and I do not know how exactly this is pronounced. And there is no difference in script to indicate that whether a yakara or vakara is laghucharana or not. And so, so actually what happens is in script it is still bhoi achyuta, where the yakara still remains, but the pronunciation varies slightly. Okay. Now the next sutra says, Oto gargyasya. పదద్వయం విద్యతే ఓతః గార్గ్యస్య ప్యూర్ లఘు ప్రయత్నతర శాకటాయనస్య ఇత్యతః వ్యోః ఇతి అనువర్తతే. వకార యకారయోః లోపశాకల్యస్య ఇత్యనేన లోపః ఇతి అనువర్తతే. పరస్య ఇత్యతి క్రియతే. అర్థః ఓకారాత్ పరస్య పదాంతస్య అలఘు ప్రయత్నస్య యకారస్య. సో దేర్ ఆర్ టూ ఆప్షన్స్. యాజ్ దెర్ ఇస్ వన్ ఆప్షన్ వేర్ ద యకార భోయ్ అచ్యుత, ద యకార ఇస్ కన్వర్టెడ్ టు ఎ లఘు లఘుచ్చారణ యకార. In the other case, that is when it is not converted to the laghu prayatna yakara, there is a lopa. There is a lopa for the yakara. Gargyasya, even though this sutra mentions gargyasya, Ikshitar says gargya grahanam pujartham. So the name gargya is only to indicate respect and it is not to say vikalpa. We saw in the previous sutra, vyor laghu prayatna taraha shakatayanasya, tasya shakatayana grahanat vikalpena tat sutram pravartate. In most cases, whenever Panini mentions the name of a Maharshi or an Acharya, it means that the sutra is optional. But there are few cases where he just mentions a Maharshi out of respect and which does not mean that the sutra is optional. The sutra is still nitya, compulsory, even Panini wants the lopa. So this is one of those cases. So if there is a yakara at the end of a pada, which is following, which is preceded by a okara, then it gets deleted compulsorily. So there are two options. When you have bho yachyuta, after you do the yatva, it either gets a laghucharana yakara or it gets a lopa. Right? In the absence of laghucharana, there is a lopa. Yeah? So bho achyuta. Actually, in practice, in Sanskrit today, this is the one which is the most common. Most cases, we find the yakara gets deleted by oto gargyasya. The laghucharana paksha is very rare, and as I said, I have not heard it pronounced, so I know. Laghu prayatna pakshe bho yachyuta ityatra atra yakaraha laghu uchcharanaha. Padantasya kim toyam kimuchyate atra okarat parasya alaghu prayatnasya yakarasya nityam lopahasya. If we restrict the sutra to that is if we do not have this padanta, then you have an okara here which is followed by a yakara, which is alaghu prayatna. Here also there would be the possibility of a lopa of yakara, which does not happen. Only when the yakara is at the end of a pada, then only there is a lopa. So bho bhago agho apurvasya yoshi ityanena yatve krate yadi avarna purvaha tarhi lopashakalyasya ityanena vikalpena lopaha bhavati. Yadi bho bhago agho ityetesham रोहो यकारः तस्य पक्षे लघुच्चारण यकारः तदभावे गोत्वकार्यस्य इत्यनेन नित्यं लोपः इति स्थितिः. नमस्कार कैसे वसु जी?
नमस्ते नमस्ते। क्वेश्चन आई हैव इज ओगो अगो अपूर्वस्य योषि एस सूत्र विचितमिति सूत्र इज प्योरली प्रयत्नतर इट डजंट सीम टू बी ऑप्शनल नॉट विकल्प
व्योर लघु प्रयत्नतर इज विकल्प
इति सो None of this is optional, right?
Vyor laghu prayatna tarah is optional because it is shakatayanasya mate eva laghu laghu charana.
Oh, okay.
Bhobhago so is not optional. Otogargyasya is not optional. But vyor laghu prayatna tarah shakatayanasya is optional.
And lopashakalyasya also is optional. So,
lopashakalyasya is optional. Right.
Option. So you have two optionals and two.
Correct. Nitya Sutra.
Understand.
So, apparently the book Ashtadhyayi by Shirish Chandra Vasu, it says for the Vyor Laghu Prayatna Taraha, it says a lighter articulation. But how exactly to demonstrate a lighter articulation is, well, we should just think about it and maybe ask some scholars how exactly to pronounce a Laghu Charana Yakara or Vakara, which I do not know. So. Any of you know, please do volunteer and well, I'll also try to find out, but for now that's all I can say about that. So next, Agrimam Sutram Bhavati, Utra Pashyantu Sutra Kramaha. We should always keep the Ashtadhyayi Krama in mind when we are studying a single Prakarana. That's what I want to emphasize always. If it is one Prakarana, always the Sutra Krama matters very much because that is what makes things clear. Especially in the Tripadi, the Sutra Krama is, it should always be on our minds. You can't just take a Sutra and leave out its place in the Ashtadhyayi. So the Sutra Krama what we have is Bho Bhago Abhoma Purvasya Yoshi, Vyor Labha Prayatnatara Shakatayanasya, Lopashakalyasya, which we have already studied, Otogargyasya, Idanim, Unicha Pade, Iti Agrimam Sutram. Padatrayamasti uni pade cha chakaraha bho bhago abho apurvasya yoshi ityataha apurvasya iti anuvartate vyor labhu prayatna taraha shakatayanasya ityataha vyoho iti lopaha iti padasya. So seeing the anuvrati we should be able to make the sutrartha at least vaguely, at least approximately you should know the sutrartha. So lopaha, this sutra also mandates deletion. Kesham lopaha vakara yakarayoho, that's why yakaraha अस्ति यकारस्य अपूर्वस्य यकारात् प्राक् अवर्णः भवेत् पदान्ते भवेत् यकारः कदा लोपः उहि इति निपातः. ऑलरेडी सीन इन द सादिगण देयर इज मय उयो वोवा. ऑलरेडी सीन उहि इन लॉट्स ऑफ प्लेसेस. उहि इज अ निपात वेयर यकार इज इत. सो वी हैव उ. सो उ इति निपाते परे एंड देयर इज अ पदे. वी विल सी व्हाट द पदे मींस लेटर. अवर्णपूर्वयोः पदान्तयोः यवयोः लोपः उञि परे सस् उ एकाग्निः इत्यस्ति. तच्छब्दः, तच्छब्दस्य तदारीनामः स सुप्रत्ययः अस्ति. ससजुषोरुः इत्यनेन रत्वे सर् उ एकाग्निः. भो भगो अघोमपूर्वस्य योषि इत्यनेन यत्वे सय् उ एकाग्निः. दिस् इस् वेर् वि आर्. सो यू हेव् we'll check here that this u is ui. This is a nipata. Okay, so here avarna purva yohu, there should be an avarna preceding the yakara. Padanta yohu yavayohu, padante yakara vidyate agre ui vartate, ui iti nipataha. Idanim asya yakarasya lopaha bhavati, lope krate sa u ekagnihi iti rupam. Why was this sutra needed? This is an this is a compulsory deletion. In this case, in the absence of this sutra, sayu u ekagnihi iti sthite, lopashakalyasya ityanena vikalpena lopaha prapnoti. You'd have had an optional lopa using lopashakalyasya, which would have given us two forms with sayu u ekagnihi and sa u ekagnihi. But that is not preferred. There's only one rupa here, which is sa u ekagnihi with the deletion. There is no form which retains the yakara. That is why the sutra was made specially. Okay. So it's seen in very few cases where there's lot of niyamas where there should be a u which is following. Pade kim iti prashna. Ui cha pade ityuchyate. Kimartham saha prashna. Ui ityukte. Ui, as I told, is a nipata. Sarvesham nipatanam swarati nipatam avyayam ityanena avyayatvam asti. Avyayebhyaha supratyayaha utpadyante lupyante cha. All avyayas get supratyaya and are deleted. Once they have supratyaya, they are all padas by suptingantam padam. So, ui is always a pada. So, why say pade? Ui pade ityasya kaha arthaha. Kimartham tatha vaktavyam. Iti prashnaha. Why should he specify pade when ui is always a pada? There is no exception. Tantrayutam. Iti pratyudaharanam diyate dikshitaihi. Tantre utam iti chedaha. Utam iti ve dhatoho. Ktapratyaye samprasarane utam iti bhavati. Vayate iti ve is to sieve. That is to weave. Sorry. A cloth. Tantra is a weaver's whatever they have, that machine is called tantra, and uta is to be woven. So ve dhatoho samprasarane. So when ve, samprasarana is replacing a yan letter with an ach, igyana samprasaranam, yan letter with ik. So vakara is replaced by u. Once vakara is replaced by u and there is purva rupa, this becomes ui. Right? You have ve as the dhatu. Once you do samprasarana and there is a, always samprasarana is followed by purva rupa, so this becomes uy. Right? So now this is also ui. But this u here, which is from this ui, is not a pada. The utam iti padam. Kridantam kridantatva pratipadika samyayam supratyaye padam bhavati. Kintu u iti kevalam dhatuhu. Padam nasti. Atra lopaha nasyat. Nityam lopaha neshyate. Tasmatu pade. Yatra ui ityasya padasamya asti. Tatraiva asya sutrasya pravrtihi. Atra tu pravrtihi nasti. So it will not apply here, because even though you get ui by samprasarana of ve, this ui is not a pada. It is a dhatu, and on adding a pratyaya, the utam is a pada, but the u independently is not a pada. So ui cha pade will not apply here, and lopashakalyasya will still apply. We'll get an optional lopa and not a compulsory lopa. Okay. But there is a the ui here is not a nipata, but the sutra does not specify that ui has to be a nipata. The sutra just says ui pare. Nipata samyake ui pare iti noktam paninina. So if the pada was not there, it is the pada which tells us that the ui to be taken here, which is the nipata and not any ui. Kintu tathapi asti lakshana pratipadokta yoho pratipadokta siva grahanam iti kashtana nyayaha vartate. I think we have seen this somewhere. Kaha arthaha lakshana pratipadokta yoho. Pratipadokta is that which is specifically mentioned in a sutra. Right? For example, here he says ui. Ui is of two types. As you saw, there is one which is naturally an ui, which is a nipata. There is also another ui which we are artificially creating by the application of a lakshana. Lakshana means a shastra. By the application of the samprasarana shastra to vay, we are artificially creating an ui. So you have two options here. Ui cha pade ityatra. Ui ityanena kasya grahanam. Pratipadoktaha yaha sakshad ui iti nipataha vartate tasya grahanam va. Lakshanena arthat samprasarane krute purvarupe krute yaha vedhatuhu ui iti nishpadyate tasya yaha grahanam va. Iti prashnaha. Tadatu lakshana pratipadokta yohu pratipadokta seva grahanam. Iti paribhasha vidyate. Lakshanikam arthate lakshanaya nishpannam. Shastra prakriyaya nishpannam yadrupam asti. Tathaiva pratipadoktam. Yatha sutre uktam tatha shruyate. Iti yada dvayamapyasti tada pratipadokta seva grahanam. So if there are a case here where there is one particle which is exactly as has been described in the sutra, it is by its svabhava, it is like that. And there is one more which has been artificially created by the application of a shastra. Which should it apply to? If that is the question, then the sutra will always apply to that which is by nature the particle which has been told in the sutra. for this particular example, there is an ui, which is a nipata, which is pratipadokta, and there is a dhatu, this utam, which is lakshanika. So among these, we will always consider the one which is originally ui, which is the nipata. So if that is the argument, यदि तु प्रतिपदोक्तः निपातः उञ् इति ग्रहीष्यते सा परिभाषा विद्यते तस्मात् अत्र तादृशस्यैव उञः ग्रहणम् इति यदि उच्यते तर्हि उत्तरार्थं पदग्रहणम् ममो ह्रस्वारचि गमुन्नित्यम् इति सूत्रे अथवा मोनस्वारः इत्यादिषु नास्ति ममो ह्रस्वारचि गमुन्नित्यम् इति अग्रे अस्ति सूत्रं तदर्थं पदग्रहणम् इट् सिम्प्ली मीन्स् दट् पद इस् नाट् नीडेड् हियर् इवन् विथौट् द पदे वि कुड् हव् got the proper meaning out of this sutra. So the pada, the word pade is not completely waste. It will be used somewhere in the later sutras. That is what he says. Asmin prakarane antimam sutram. Hali sarvesham. Lopashakalyasya tatha otogargyasya ityadishu sarveshu kimuchyate ashi. Bho bhago agho apurvasya yoshi ityataha ash iti anuvartate. किन्तु वस्तुतः अचिपरे एव सर्वत्र लोपः वैकल्पिकः लोपः यथा देवा इह देवा इह इत्यादिषु हलिपरे तु यदि हल् वर्णः परतः अस्ति तर्हि सर्वेषाम् आचार्याणां मतेन नित्यं लोपः भवति द लोप इस् कम्पल्सरि इफ् देर् इस् अ हल् फालोयिङ्ग् पदद्वयं भो भगो अघो पूर्वस्य योषि इति पूर्णम् अनुवर्तते व्योः इति अनुवर्तते लोपः इति पदस्य इत्यधिकारः भो भगो अघो अपूर्वस्य एतेषां सर्वेषां सम्बन्धिनः लघु अलघूच्चारणस्य लघूच्चारणो वा भवतु अलघूच्चारणो वा भवतु यकारस्य लोपः स्यात् हलि हलिपरे नित्यं लोपः भवति सर्वेषां मतेन देर् इस् नो डैवर्जेण्ट् ओपीनियन् हियर् अकार्डिङ्ग् टु एव्रिबडि वेन् देर् इस् अ हल् वर्ण फालोयिङ्ग् द लोप इस् कम्पल्सरि द क्वश्चन् इस् इट् लोपशाकल्यस्य That is it an optional lopa using lopashakalyasya occurs only if this is an ach. Is there a laghu prayatna yakara also occurs only if there is an swara following. If it is a vyanjana, according to everybody, there is a compulsory deletion. Bhos devaha. Ittyasti. Sasajushoruhu ittyanena ratve. Bhor devaha. Bho bhago agho apurvasya yoshi ityatve. Bhoy devaha. हलि सर्वेषाम् इति लोपे भो देवाः इति एकमेव रूपं भोय् देवाः इति न भवति सो दिस् इस् वन् आफ् द केसस् आफ् विसर्गलोप वेर् देर् बट् देर् इस् नो विसर्ग एस् ए कीप् टेलिङ्ग् प्लीस् हेव् दट् इन् मैण्ड् देर् इस् नो विसर्ग इन् द प्रक्रिया वि डु नाट् गो टु विसर्ग ओन्ली आफ्टर् रुत्वा इट् इस् डिरेक्ट्लि यकार एण्ड् इट् इस् द यकार विच् इस् एक्चुलि गेटिङ्ग् डिलीटेड् बट् बिकास् In the absence of Samhita, we do Visarga for Rutva. The Vigraha would be Bhohu Devaha. But in the actual Prakriya of Bho Devaha, there is no Visarga. And this is not Visarga Lopa technically. This is Yakara Lopa. Evam eva Bho Lakshmi, Bho Vidvad Vrinda. Hal Varaneshu Pareshu Sarveshu, Bhago Namaste, Agho Yahi. सर्वे भो भगो अघो इति सर्वेपि सम्बोधनार्थकाः निपाताः आल् आफ् देम् आर् यूस्ड् फार् अड्रेसिङ्ग् सम्बोधन अवर्णपूर्वस्यापि देवा ऋनम्याः इति स्थिते अपूर्वत्वात् यत्वे कृते हलिपरे हलिसर्वेषाम् इत्यनेन लोपे देवानम्याः देवा यान्ति हलि किं प्रश्नः हलिपरे पूर्वमेव उक्तम् अचिपरे तु लोपशाकल्यस्य इत्यनेन विकल्पेन लोपः भवति देवा इह अथवा देवा इह भो भगो अघो इत्येतेषां विषये तु लघुच्चारणः यकारः भवति अथवा अत्रापि भवति लघुच्चारणः यकारः तदभावे ओतोगार्ग्यस्य इत्यनेन लोपः सो दट् इस् वन् मेजर् थिङ्ग् अबौट् the sandhis where we have the common visarga sandhis we have actually dealt with all of them till now from now on there are sutras which refer to specific shabdas or something like that so rosupi iti agrimam sutram padadvayam tate raha asupi अहन् इति पूर्वसूत्रम् अहन् इत्येव सूत्रं तदनुवर्तते अह्नः रेफादेशः स्यात् न तु सुपि सूत्रातः अहन् इति शब्दस्य रः अर्थात् रेफः आदेशः भवति अलोन्त्यस्य इत्यनेन अन्तादेशः नकारस्य स्थाने रेफादेशः भवति असुपि न तु सुपि सुपि परे तु रेफादेशः न भवति रोर् अपवादः उच्यते दिस् इस् द एक्सेप्शन् टु रु actually what's the previous sutra tells the ahan is the previous sutra it tells ahan shabdasya ruhusyat sasajusho ruhu sutra kramah sasajusho ruhu avayashvetava purvanashcha ahan sasajusho ruhu ityanena ruhu iti anuvartate Rosupi is not Sasajusho Ruhu is 8 to 66, correct? So Sasajusho Ruhu iti sutra to Ruhu iti anuvartate Ahan iti sutra Ahan is 8 to 68. Sasajusho Ruhu is 8 to 66. So Sasajusho Ruhu iti taha Ruhu iti anuvartate Kaha arthaha Ahan iti shabdasya rutvam syat iti arthaha. That's all. The word Ahan will get rutva. Padasya iti anuvartate Padante iti bhavati. Asupi रेफः भवति बट् इफ् इट् इस् नाट् सुप् देन् देर् विल् बि अ रेफ सो वाट् वुड् बि द प्रीवियस् सूत्रार्थ सुपि परे अहन् शब्दस्य रुत्वं भवति असुपि परे रेफः भवति इत्यर्थः सो दट् इस् द केटगरैजेशन् वेन् अहन् शब्द इस् फालोड् बै अ सुप् प्रत्यय देन् वि गेट् रुः अर्थात् रुत्व अस् द आदेश असुपि परे सुभिन्ने परे रः अर्थात् रेफः आदेशः भवति कः भेदः वै वै इस् मेकिङ्ग् अ डिस्टिङ्क्षन् बिट्वीन् रेफ एण्ड् रुत्व क्वश्चन् फार् एक्साम्पल् वेर् दिस् वुड् अप्लै इस् अहः अहः इत्यस्य अहन् अहः द्वन्द्वसमासः अहः अहः इति स्थिते अहन्सु अहन्सु इति स्थिते प्रक्रियायां सत्याम् अहन् अहः इत्यस्ति इदानीं किं भवेत् इति प्रश्नः तदा किं भवति अहन् इत्यस्य रेफः भवति वा पूर्वसूत्रेण ऋत्वे प्राप्ते अनेन असुपि परे वेन् इट् इस् फालोड् बै संथिङ्ग् अदर् देन् सुप् देर् शुड् बि अ रेफ अस् द आदेश सो वेन् यु हाव् रेफ अस् द आदेश वि गेट् अहर् अहः अहरहः सिमिलर्ली इफ् यु हाव् अहन् गणः इट् बिकम्स् अहर् गणः इदानीं प्रश्नः किमर्थं रेफः what why say because even if you do rutva what you have finally is repha because the ukara goes by itsamya we still have repha so even if you have do rutva here it would still be ahar ahaha and the form is aharaha you have ahan ganaha you'd still get ahar ganaha so why should why, what is the point of this sutra why rosupi any answers
Yesterday, you also said that Atharva or Apatharva will be applying only in this Rutva, not in this Ketva.
Exactly. So, अतोरोर् अप्लुतादप्लुते इत्यतः उक्तं रोहु उत्तमं भवति न तु रेफस्य स एव भेदः रोहु रेफस्य द डिफरेन्स् बिट्वीन् रु एण्ड् रेफ इस् वेर् देर् आर् सम् कार्यस् विच् आर् स्पेसिफैड् फार् रु विच् विल् नाट् हेपन् फार् रेफ फार् एक्साम्पल् हियर् अत्रैव किं भवति यदि ऋत्वं स्यात् इफ् वि हेड् ऋत्व हियर् अहरहः इत्यत्र किं भवेत् अतोरोर् अप्लुतात् अप्लुते पूर्वमपि ह्रस्वकारः अस्ति अग्रेपि ह्रस्वकारः अस्ति अतोरोरप्लुतादप्लुते इत्यनेन उत्वे ततः गुणे पूर्वरूपे अहोहः इति रूपं स्यात् न तु अहरहः एवम् अहर्गणः इत्यत्रापि हशिच इति उत्वे गुणे अहोगणः इति स्यात् नहु अहर्गणः. दट् इस् वै हि टेक्स् केयर् टु से दट् द इवन् इट् इस् नाट् फालोड् बै संथिङ्ग् अदर् देन् सुप् देर् इस् रेफ एण्ड् नाट् ऋत्व. इफ् देर् इस् ऋत्व देर् वुड् बि उत्व. इफ् देर् इस् नो ऋत्व देन् देर् इस् नो रैट्. So there is one more question which asks, why do we not apply Naloka Pratipadika Antasya here? Okay, so yeah, this is one question which I'll answer. The Sutra Ahan, the Kaumudi says, Ahaha Ahobhyam, wherever you have Rutva or Repha, Rutva, Ratva Rutva Yoho Asiddhatvat Nalope Prapte. It is true that Nalopa Pratipatikanta says earlier, so it would apply because it is Asiddha. But still, Ahan iti Avartya, repeat Ahan, Ekena Nalopa Bhavan Nipatya Dvitiyena Ruhu Vidheyaha. So they use a technique to say that the first ahan, the word ahan is repeated twice, and the sutra ahan is repeated twice. The first sutra would mean that ahan will not get nalopa, and the second, on repetition, we take the meaning that the ahan is replaced by rutva or ratva, as is the case. Okay, so that's an effort to ensure that nalopa does not occur in case of ahan. Okay, so coming back to the point, rutve sati utvam gunah vasya tadarthameva repadeshah vidhiyate. Asupi kim, asupi iti visheshanam kim artham diyate, ahobhyam ityasti, ahan iti pratyayat, ahan iti pratiparikat, tritiya chaturthi panchami dvivachane bhyam pratyaye krate, sasajushoruhu ahan ityanena rutvam. Atra sup parakatva, since this belongs to sup, ro supi will not apply. Instead, using ahan, we get ru as the adesha. Rutve ukarasya lopaha, tataha hashicha iti uttam gune ahobhyam iti rupam siddhyati. That is why when it is followed by sup, we have rutva, and when it is followed by something else, there is rephadesha. अत्र एकं वार्तिकं वर्तते, रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्. सो वाट् हेपन् टिल् नौ, वी सेड् इफ् अहन् इस् फालोड् बै सुप् प्रत्यय देर् इस् रुत्व, इफ् इट् इस् फालोड् बै एनिथिङ्ग् एल्स् इट् इस् रेफा. बट् नौ दट् एनिथिङ्ग् एल्स् दर् इस् एन् एक्सेप्शन्. द वार्तिका सेस् रूपरात्रिरथन्तरेषु, एतेषु परेषु रत्वे प्राप्ते तद्बाधित्वा रुत्रं विधे रुत्वमेव भवति, न तु रेफादेशः. रूपे रूपशब्दे अथवा रूपप्रत्यये, रात्रिशब्दे रथन्तरशब्दे वापरे अहन् इत्यस्य रुत्वं भवति, न तु रेफादेशः. अहन् शब्दस्य एतेषु परेषु रोसुपि इति रेफादेशं बाधित्वा रुत्वं भवति. अहन् रूपम् इत्यस्ति अह्नोरूपम् इति षष्ठीतत्पुरुषः. अह अत्र रेफः रुत्वं भवति, रेफादेशं बाधित्वा रुत्वं. रेफ एव श्रूयते. We hear only rakara here, but this is actually from the rutva. Rutve krate punaha utve gune aho rupam iti siddhyati. Similarly, ratri shabde pare gatam aho ratri resha. Ahaha gatam, the day is past, esha ratrihi, and this is night. Now, this ahan is followed by ratri shabda. So here also, instead of repha, we have rutva, because of which we have utva and guna, so it becomes aho ratrihi, gatam aho ratri resha. Ekadesha vikritasya ananyatvat aho ratraha iti uchyate. Kaha arthaha ahascha ratrischa iti dvandva samasaha, day and night. Katham prakriya ahan su ratri su ityasti idam alaukika vigraha vakyam iti uchyate. So in samasas, which we'll hopefully study sometime later, this ahascha ratrischa is the actual vigraha vakya. For any samasa, we have a vigraha. The laukika vigraha vakya, the vigraha vakya which is in use in loka, is ahascha ratrischa. That is called laukika vigraha vakya. But for doing the prakriya of shastra, ಶಾಸ್ತ್ರಪ್ರಕ್ರಿಯಾ ನಿರ್ವಾಹಾರ್ಥಂ ವಿ ಯೂಸ್ ಅನದರ್ ವಿಗ್ರಹ ವಾಕ್ಯ ವಿಚ್ ವಿ ಕಾಲ್ ದ ಅಲೌಕಿಕ ವಿಗ್ರಹ ವಾಕ್ಯ. ದ ಅಲೌಕಿಕ ವಿಗ್ರಹ ವಾಕ್ಯ ಈಸ್ ವೇರ್ ವಿ ಹ್ಯಾವ್ ದ ಪ್ರಾತಿಪದಿಕ ಫಾಲೋಡ್ ಬೈ ದ ಪ್ರತ್ಯಯ. ಫಾರ್ ಎಕ್ಸಾಂಪಲ್, ಇಫ್ ವಿ ಆರ್ ಡೂಯಿಂಗ್ ಎ ಸಮಾಸ ಫಾರ್ ಸೀತಾಯಾಹ ಪತಿ ಸೀತಾಪತಿ, ಸೀತಾಯಾಹ ಪತಿ ಇತಿ ವಿಗ್ರಹ ಲೌಕಿಕ ವಿಗ್ರಹ. ಅಲೌಕಿಕ ವಿಗ್ರಹಸ್ತು ಸೀತಾ ನಸ್ ಪತಿ ಸು. ಸೀತಾ ಇತ್ಯಸ್ಮಾತ್ ಷಷ್ಠಿ ವಿಭಕ್ತೌ ಏಕವಚನೆ ಙಸ್ ಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಸೀತಾ ನಸ್ ಪತಿ ಶಬ್ದಾತ್ ಪ್ರಥಮ ವಿಭಕ್ತೌ ಏಕವಚನೆ ಸು ಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಪತಿ ಸು, ದಟ್ ಇಸ್ ದ ಅಲೌಕಿಕ ವಿಗ್ರಹ ವಾಕ್ಯ. ದಟ್ ಇಸ್ ಹೌ ವಿ ಆಲ್ವೇಸ್ ಡೂ ಸಮಾಸಾಸ್ ಇನ್ ದ ಶಾಸ್ತ್ರ ಇನ್ ವ್ಯಾಕರಣ. ಸೊ ನೌ ದ ಅಲೌಕಿಕ ವಿಗ್ರಹ ವಾಕ್ಯ ಫಾರ್ ದಿಸ್ ಸಮಾಸ ವುಡ್ ಬಿ ಅಹನ್, ವಿಚ್ ಇಸ್ ದ ಪ್ರಾತಿಪದಿಕ, ಸು ವಿಚ್ ಇಸ್ ದ ಪ್ರತ್ಯಯ, ಅಂಡ್ ರಾತ್ರಿ ವಿಚ್ ಇಸ್ ಅಗೇನ್ ದ ಪ್ರಾತಿಪದಿಕ, ಅಂಡ್ ಸು ವಿಚ್ ಇಸ್ ದ ಪ್ರತ್ಯಯ. ಚಾರ್ಥೇ ದ್ವಂದ್ವ ಇತಿ ಸೂತ್ರೇಣ ದ್ವಂದ್ವ ಸಮಾಸಃ. ತತಃ ಕಿಂ ಭವತಿ, ಅಹನ್ ಸು ರಾತ್ರಿ ಸು ಇತಿ ಸ್ಥಿತೆ ಅಚ್ ಇತಿ ಸಮಾಸಾಂತ ಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಅಹಸರ್ವೈಕದೇಶ ಸಂಖ್ಯಾತ ಪುಣ್ಯಾಚ್ಚ ರಾತ್ರೇ ಇತಿ ಸೂತ್ರೇಣ ಅಚ್ ಇತಿ ಸಮಾಸಾಂತ ಕ್ರಿಯತೆ. ದ ಒನ್ ಫೇಮಸ್ ಎಕ್ಸಾಂಪಲ್ ಆಫ್ ಸಮಾಸಾಂತ ಪ್ರತ್ಯಯ ಇಸ್ ರಾಜಾಹಸ್ಸಖಿಭ್ಯಶ್ ಟಚ್. ಯು ಶುಡ್ ನೋ ದಟ್ ರಾಜಾ ರಾಜಾನೌ ರಾಜಾನಃ, ಬಟ್ ಇಫ್ ಯು ಡೂ ಅ ತತ್ಪುರುಷ ಸಮಾಸ ಮಹಾರಾಜ ಮಹಾರಾಜೌ ಮಹಾರಾಜಾಃ. ಇನ್ ಸ್ಕೂಲ್ ವಿ ಟೀಚ್ ದಟ್ ದ ರಾಜನ್ ಶಬ್ದ ವಿಚ್ ಇಸ್ ಆಕ್ಚುಲಿ ನಕಾರ ಅಂತ, ವೆನ್ ಇಟ್ ಈಸ್ ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ಎ ತತ್ಪುರುಷ ಸಮಾಸ ಇಟ್ ಬಿಕಮ್ಸ್ ಅಕಾರ ಅಂತ. ಸೊ ದಟ್ ಇಸ್ ಬಿಕಾಸ್ ಆಫ್ ಎ ಪ್ರತ್ಯಯ ವಿಚ್ ಇಸ್ ಆಡೆಡ್ ಎಟ್ ದ ಎಂಡ್ ಆಫ್ ಎ ಸಮಾಸ ವಿಚ್ ಇಸ್ ಕಾಲ್ಡ್ ದೇರ್ ಇನ್ ದಟ್ ಕೇಸ್ ಇಟ್ ಇಸ್ ಟಚ್ ಪ್ರತ್ಯಯ. ಸಿಮಿಲರ್ಲಿ ವೆನ್ ಅನ್ ದೇರ್ ಇಸ್ ಅ ರಾತ್ರಿ ಶಬ್ದ ಇನ್ ಅ ಸಮಾಸ ಇನ್ ಇಟ್ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ಒನ್ ಆಫ್ ದೀಸ್ ದೇರ್ ಇಸ್ ಅನ್ ಅಚ್ ವಿಚ್ ಇಸ್ ಅ ಸಮಾಸ ಅಂತ ಪ್ರತ್ಯಯ. ಸೊ ಇಟ್ ಇಸ್ ಜಸ್ಟ್ ಅ ಸಫಿಕ್ಸ್ ವಿಚ್ ಇಸ್ ಆಡೆಡ್ ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ಎ ಸಮಾಸ ಇಟ್ಸ್ ಕಾಲ್ಡ್ ಅ ಸಮಾಸ ಅಂತ. ಸೊ ನೌ ಯು ಹ್ಯಾವ್ ಅಹನ್ ಸು ರಾತ್ರಿ ಸು ಅಂಡ್ ದ ಅಚ್ ಅಕಾರ ಆಫ್ ಅಚ್. ಆಲ್ವೇಸ್ ಇನ್ ಅ ಸಮಾಸ ದ ಸು ಪ್ರತ್ಯಯಸ್ ಗೆಟ್ ಡಿಲೀಟೆಡ್ ಬೈ ಸುಪೋಧಾತು ಪ್ರಾತಿಪದಿಕಯೋಃ ಇತಿ ಪ್ರತ್ಯಯಸ್ಯ ಲೋಪಃ. ಕಿಂ ಶಿಷ್ಟಂ ಅಹನ್ ರಾತ್ರಿ ಅ ಇತ್ಯಸ್ತಿ. ಇದಾನೀಂ ರಾತ್ರಿ ಇತ್ಯತ್ರ ಇಕಾರಸ್ಯ ಯಸ್ಯ ಇತಿ ಚ ಇತ್ಯನೇನ ಲೋಪಃ ಭವತಿ. ಅಹನ್ ರಾತ್ರಿ ಅ. ನೌ ದ ಕ್ವೆಶ್ಚನ್ ಇಸ್, ಕ್ಯಾನ್ ವಿ ಅಪ್ಲೈ ರೂಪರಾತ್ರಿ ರಥಂತರೇಷು ಋತ್ವಂ ವಾಚ್ಯಂ. ದ ವಾರ್ತಿಕಾ ಸೇಸ್, ವೆನ್ ಅಹನ್ ಶಬ್ದ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ರಾತ್ರಿ ಶಬ್ದ ದರ್ ಇಸ್ ಋತ್ವ. ನೌ ಹಿಯರ್ ವಿ ಡು ನಾಟ್ ಹ್ಯಾವ್ ರಾತ್ರಿ, ವಿ ಹ್ಯಾವ್ ರಾತ್ರಿ, ದರ್ ಇಸ್ ನೋ ಇಕಾರ. ಸೊ ಕ್ಯಾನ್ ವಿ ಅಪ್ಲೈ ಋತ್ವ ಆರ್ ನಾಟ್ ಇಸ್ ದ ಕ್ವೆಶ್ಚನ್. ಸಿನ್ಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಎ ಕಂಪ್ಲೀಟ್ ರಾತ್ರಿ ಶಬ್ದ, ರೂಪರಾತ್ರಿ ರಥಂತರೇಷು ಋತ್ವಂ ವಾಚ್ಯಂ ಇತಿ ಋತ್ವಂ ಭವತಿ ಉತನ ಇತಿ ಚೇತ್ ಏಕದೇಶ ವಿಕೃತಸ್ಯ ಅನನ್ಯತ್ವಾತ್. ಏಕದೇಶ ವಿಕೃತಂ ಅನನ್ಯವತ್ ಇದ ಪರಿಭಾಷ. ಏಕದೇಶ ವಿಕೃತಂ, ಏಕದೇಶ ಮೀನ್ಸ್ ಅ ಪಾರ್ಟ್. ಸೊ ದಟ್ ವಿಚ್ ಹ್ಯಾಸ್ ಬೀನ್ ಆಲ್ಟರ್ಡ್ ಓನ್ಲಿ ಪಾರ್ಟ್ಲಿ ಅನನ್ಯವತ್ ಡಸ್ ನಾಟ್ ಬಿಕಮ್ ಸಮಥಿಂಗ್ ಎಲ್ಸ್. ದ ಲೌಕಿಕ ಉದಾಹರಣ ವಿಚ್ ಇಸ್ ಕಾಮನ್ಲಿ ಗಿವನ್ ಫಾರ್ ದಿಸ್ ಪರಿಭಾಷ ಇಸ್, ಚಿನ್ನೆ ಪುಚ್ಛೆ ಶ್ವಾಶ್ವೈವ ನಾಶ್ವಃ ನವಾಗರ್ದಭಃ. ಇಫ್ ಯು ಕಟ್ ಆಫ್ ದ ಟೇಲ್ ಆಫ್ ಅ ಡಾಗ್ ಇಟ್ ಸ್ಟಿಲ್ ರಿಮೇನ್ಸ್ ಅ ಡಾಗ್, ಇಟ್ ಇಸ್ ನಾಟ್ ಚೇಂಜ್ಡ್ ಇನ್ ಟು ಅ ಹಾರ್ಸ್ ಆರ್ ಎ ಡಾಂಕಿ ಇಸ್ ವಾಟ್ ದಿಸ್ ಸೇ ಆಸ್ ಅ ಲೌಕಿಕ ಉದಾಹರಣ. ವಿಚ್ ಮೀನ್ಸ್ ದಟ್ ಈವನ್ ಇಫ್ ಯು ಟೇಕ್ ಆಫ್ ದ ಇಕಾರ ಆಫ್ ದಿಸ್ ರಾತ್ರಿ ಇಟ್ ಇಸ್ ಸ್ಟಿಲ್ ರಾತ್ರಿ ಶಬ್ದ, ಇಟ್ ಇಸ್ ನಾಟ್ ಸಮಥಿಂಗ್ ಎಲ್ಸ್. ಏಕದೇಶ ವಿಕೃತಂ ಅನನ್ಯವತ್. ಸೊ ಬೈ ಯೂಸಿಂಗ್ ದಟ್ ಪರಿಭಾಷ ಈವನ್ ಹಿಯರ್ ವಿ ಗೆಟ್ ಋತ್ವ. ಋತ್ವೇ ಕೃತೆ ಅಹರ್ ರಾತ್ರ ಇತಿ ಕೃತೆ ಹಶಿಚ ಇತಿ ಉತ್ವೇ ಗುಣೆ ಅಹೋರಾತ್ರ ಇತಿ ರೂಪಂ ಸಿದ್ಧ್ಯತಿ. ಅಹೋ ರಾತ್ರ ಏಕದೇಶ ವಿಕೃತಸ್ಯ ಅನನ್ಯತ್ವಾತ್ ಅಹೋರಾತ್ರ ಇತ್ಯನೇನ ತ್ವಂ ಭವತಿ. ಓಕೆ, ದೇರ್ ಇಸ್ ಅ ಕ್ವೆಶ್ಚನ್ ವಿಚ್ ಸೇಸ್ ವೈ ಡು ವಿ ನಾಟ್ ಅಪ್ಲೈ ರೋರಿ ಹಿಯರ್, ಬಿಕಾಸ್ ಯು ಹ್ಯಾವ್ ಅಹರ್ ಅಂಡ್ ರಾತ್ರ. ಸೊ ವೈ ಡೋಂಟ್ ವಿ ಅಪ್ಲೈ ರೋರಿ? ರೋರಿ ಇಸ್ ಸೂತ್ರ ವಿಚ್ ದಾದಾಸ್ ಹ್ಯಾವನ್ ಸ್ಟಡಿ ಡೇಸ್, ವಿ ಸ್ಟಡಿ ಇಟ್ ನೆಕ್ಸ್ಟ್, ಬಟ್ ಇಟ್ಸ್ ಇನ್ ದ ತ್ರಿಪಾದಿ ಆ್ಯಂಡ್ ದಿಸ್ ಹಶಿಚ ಆ್ಯಂಡ್ ಅಥೋರೋರ್ ಅಪ್ಲುತಾದ ಅಪ್ಲುತೆ ಆರ್ ಇನ್ ದ ಷಷ್ಠಾಧ್ಯಾಯ ವಿಚ್ ಇಸ್ ದ ಸಪಾದ ಸಪ್ತಾಧ್ಯಾಯಿ. ಸಿದ್ಧತ್ವಾತ್ ಉತ್ವಮೇವ ಭವತಿ ನತು ರೇಪಃ. ವಿಚ್ ವಿಲ್ ಸಿ ಲೇಟರ್. ಅಹೋರಾತ್ರ ಕ್ಲಿಯರ್. ಸೊ ಅಹೋ ರಥಂತರಂ ರೂಪ ರಾತ್ರಿ ರಥಂತರ ಏತೇಷು ಪರೇಷು ಋತ್ವಂ ಭವತಿ. ಋತ್ವೇ ಕೃತೆ ಉತ್ವೇ ಗುಣೆ ಅಹೋರೂಪಂ ಅಹೋರಾತ್ರಿ ಆರ್ ಅಹೋರಾತ್ರ ಅಹೋರಥಂತರಂ ಇತಿ ರೂಪಾಣಿ ಸಿದ್ಧ್ಯಂತಿ. देर इज वन मोर वार्तिक विच ऑल्सो अप्लाइज टू अहर शब्द अहरादीना पत्यादिषु वारेफः सो दिस इज एक्चुअली विसर्गस्य अपवादः एक्चुअली यू हैव अहर एंड पति वॉट इज द थिंग विच इज हैपनिंग यू हैव अहन पति अन्हः पति अहन पति इति स्थिते रोसुपि इत्यनेन रेफादेशः भवति तदा किं भवति अहर पति इति भवति अयं न ऋत्वं ऋत्वस्य अभावात् उत्वं न भवति देयर इज नो उत्वा सो यू हैव अहर पति वॉट वुड हैपन नाउ वॉट वुड हैपन नेक्स्ट I hope you got the point. You have ahan patihi. Rosupi ityanena rephadeshah kriyate. Ahar patihi. Idanim kim bhavet. Kupoh kah paucha ityanena kim vidhiyate. Visargasya sthane jishvamuliyah upadmaniyova vidhiyate. Kinto atra jishvamuliyopi nasti upadmaniyopi nasti. Ayo, visargah nasti. Visargasya sthane jishvamuliyah upadmaniyova bhavet. There is no visarga yet. What do we do? Ahar patihi kim bhavati. Suji?
Karavasanayor visarjaniyaha.
Exactly. So, karavasanayor visarjaniyaha ityanena visarge krate. Visargasya sthane kupoh kahpocha ityanena jishvamuliyaha upadmaniyava prapnoti. Kintu karavasanayor visarjaniyaha iti visarge prapte visargasya apavadatvena repaha vidhiyate. अर्थात् रेफस्य स्थाने रेफ एव भवति विसर्गस्य अपवादत्वेन तदा किं भवति रूपम् अहर्पतिः गीर्पतिः धूर्पतिः अहरादयः इति कश्चन गणः अस्ति तद्गणपठितानां शब्दानां रेफस्य स्थाने रेफ एव भवति टु प्रिवेण्ट् विसर्ग यु हाव् अ रेफ बट् दिस् इस् आप्शनल् सो वेन् दिस् डस् नाट् अप्लै पक्षे विसर्ग उपध्मानीयौ देन् वि कन्वर्टेड् टु विसर्ग बै खरवसानयोर् विसर्जनीयः ततः कुप्पोः कः पोच इत्यनेन जिह्वामु उपध्मानीयः विसर्गश्च भवति सो वी हाव् त्री फार्म्स् इन् आल् दीस् केसेस् इट् विल् बि अहर्पतिः अहः पतिः अहः पतिः एवम् अन्यत्रापि ओके सो नौ वी हाव् द सूत्र विच् वि टाक्ड् अबौट् जस्ट् नौ विच् इस् काल्ड् रोरि पदद्वयमेव अस्ति रः रि अर्थः ढोढे लोपः इति पूर्वसूत्रात् लोपः इति अनुवर्तते रः इति षष्ठी विभक्तिः रेफस्य स्थाने रि इति सप्तमी विभक्तिः रेफे परे वेन् रेफा इस् फालोड् बै अनदर् रेफा लोपः लोपो भवति सो देर् इस् अ लोप आफ् द फस्ट् रेफा रेफस्य रेफे परे लोपः स्यात् पुनर् रमते पुनर् इति रेफान्तम् अव्ययम् तस्य रेफे परे रमते इति रेफे परे लोपः भवति पुन रमते इति स्थिते अग्रिमं सूत्रं भवति ढ्रलोपे पूर्वस्य दीर्घोणः ढ्रलोपे पूर्वस्य अणः दीर्घः ढोढे लोपः रोरि इति अस्ति ढकारस्य ढकारे परे लोपः भवति रेफस्य रेफे परे लोपः भवति एवं लोपे कृते पूर्वस्य अणः दीर्घः स्यात् पूर्वे अण्वर्णः अस्ति चेत् दीर्घः भवति ढरेफौ लोपयति इति तथा तस्मिन् वर्णे अर्थात् ढकारे रेफात्मके वापरे पूर्वस्य अणः दीर्घः स्यात् पुनर् रमते इत्यासीत् रोरि इत्यनेन लोपे पुन रमते सो इफ् यु सी हियर् यु हेव् अ पुन रमते अण् द अण् विच् वास् प्रिसीडिङ्ग् द रेफ विल् गेट् दीर्घ सो वि हेव् पुना रमते दिस् इस् हौ वि आल्सो हेव् अन्ताराष्ट्रिय अन्तर् अण्ड् राष्ट्रिय बिकम्स् अन्ताराष्ट्रिय हरिर्रम्यः रोरि इत्यनेन लोपे हरिरम्यः हरीरम्यः शम्भूराजते इत्यादीनि उदाहरणानि रैट् सो वेर् एवर् देर् इस् अ ढकार फालोड् बै ढकार द वन् द प्रीवियस् ढकार इस् डिलीटेड् अण्ड् द अच् बिफोर् अण् बिफोर् इट् इस् इलाङ्गेटेड् सिमिलर्लि वेन् रेफा इस् फालोड् बै रेफा the repha is deleted and the un preceding it is elongated so there are few more things to know about dhralope dirgha purvasya dirghonaha and there is also dalakritya which we'll see in the next class. Why does he define dhralope as this? He says a complicated definition. He says, dharephau lopayati iti dhralopaha tasmin pare. So why all that, and what is the dalakritya? We'll see next class. Any doubts for now? Dhodhe lopaha is the sutra which gives lopa for dha followed by dha. It is a previous sutra to Rori. We have it here in the Anuvritti. Dhodhe lopaha. Dhakarasya dhakare pare lopaha. Rori. Rephasya rephe pare lopaha. There is a question. Rori. Is this the ro raha is shashti? This is the shashti of which word? Is it R or Ru? Which means to say, does it mean Repha or Rutva? It is Raha, which is Rephasya. R is the Pratipadika and Raha. If the Pratipadika was Ru, which is Rutva, as in Rutva, the word would have been Rohu. Ri. So this is Raha Ri. Rephasya sthane Rephe pare Lopa. Any other questions? Enakshara samam nayamadhigamya maheshwara triksam vyakaranam proktam tasmai paninaye namaha. Mukhyakaram vravijam bhaskaram patanjalim paninim sutrakaram cha pranatamasmi munitrayam munitrayam namaskritya taduktih paribhavya cha vyakarana siddhanta kaumudiyam trakshate.